ॐ सरस्वती महाभागे विद्ये कमललोचने विश्वरूपे विशालाक्षि विद्यां देहि नमोऽस्तुते येनाक्षरसमाम्नायम् अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। हरिः ओम् श्रीगुरुभ्यो नमः। सर्वेभ्यः नमस्कारः। पाणिनिव्याकरणवर्गे सर्वेषां स्वागतम्। अस्माकं प्रवर्तमानविषयः अस्ति धातूनां पदव्यवस्था अपि च इड्व्यवस्था। पदव्यवस्थाविषये इदानीं पर्यन्तं तत्र अस्माभिः दृष्टं तत्र परस्मैपदी अपि च आत्मनेपदी संज्ञाद्वयं तत्र तिङ्प्रत्ययानां कृते अपि च ये यः क्रियापदम् अस्ति क्रियापदम् अथवा तिङन्तपदं वदामः चेत् तत्र तिङन्तपदस्य तत्र त्रीणि प्रयोगाः सन्ति कर्तरिप्रयोगः कर्मणिप्रयोगः अपि च भावेप्रयोगः। कर्तरिप्रयोगे तत्र धातुः अनुदात्तेत् वा स्वरितेत् वा नित् वा अपि च इत् वा एतत् दृष्ट्वा तत्र अस्माभिः तिङ्प्रत्ययाः योजनीयम्। सो यदि प्रथमसूत्रं वयं दृष्टवन्तः अनुदात्तेत् किमस्ति प्रथमसूत्रम् अनुदात्तनित आत्मनेपदम् अनुदात्तनित आत्मनेपदम् इति सूत्रेण तत्र यदि धातुः अनुदात्तेत् अस्ति सो धातुः अनुदात्तेत् अस्ति चेत् अनुदात्तस्वरस्य यस्मिन् धातुः इत् सः धातुः अनुदात्तेत् धातुः धातुः अनुदात्तेत् अस्ति चेत् तस्य अनन्तरं कर्तरिप्रयोगे तत्र आत्मनेपदीप्रत्ययः योजनीयम्। अपि च धातुः नित् अस्ति कण्ठनकारः यस्मिन् धातुः इत् संज्ञा कण्ठनकारस्य यस्मिन् धातुः इत् संज्ञा सः धातुः अपि आत्मनेपदी भवति कर्तरिप्रयोगे तत्र आत्मनेपदीप्रत्ययः योजनीयम्। परन्तु यदि वयम् एतत् सूत्रं पश्यामः अनुदात्तनित आत्मनेपदम् अस्मिन् सूत्रे किमपि न दत्तम् 3.12 भावकर्मणोः इति सूत्रम् एकनिमिषः 1.3.12 प्रथमाध्याये तृतीयपादे द्वादशसूत्रम् प्रथमाध्याये तृतीयपादे द्वादशसूत्रम् प्रथम अध्याये तृतीयपादे द्वादशसूत्रमस्ति अनुदात्तनित आत्मनेपदम्। अस्मिन् सूत्रे महर्षि केवलम् अत्र कः निर्देशः इति पश्यामः चेत् अनुदात्तेत धातु नित धातुः आत्मनेपदीप्रत्ययः स्वीकरोति इति तावदेव सूत्रस्य अर्थः। धातुः अनुदात्तेत् अस्ति अथवा धातुः नित् अस्ति तस्य अनन्तरम् आत्मनेपदीप्रत्ययः योजनीयम् इति सूत्रस्य अर्थः। परन्तु वयं जानीमः तत्र एतत् सूत्रस्य द्वादशसूत्रस्य साक्षात् अनन्तरं तत्र सूत्रमस्ति त्रयोदशसूत्रमस्ति भावकर्मणोः। सो भावकर्मणोः तत्र पूर्वसूत्रात् इत्युक्ते द्वादशसूत्रात् तत्र आत्मनेपदम् इति पदस्य अनुवृत्तिः भवति। सो भावकर्मणोः आत्मनेपदम् इति अनन्तरं सूत्रम् अस्ति। सो भावकर्मणोः इति प्रयोगः तत्र धातुविषये किमपि न लिखितं भावे प्रयोगे कर्मणि प्रयोगे धातोः आत्मनेपदी प्रत्ययः योजनीयम् इति साक्षात् अनन्तरं यत् सूत्रमस्ति तत् वदति. सो भावे प्रयोगे कर्मणि प्रयोगे धातुः तत्र अनुदात्तेत् वा नित् वा इत् वा घित् वा स्वरितेत् वा अथवा उदात्तेत् वा तत्र द्रष्टव्यं. किमर्थं सूत्रे सूत्रे लिखितं भावकर्मणोः आत्मनेपदं. सो भावकर्मणोः आत्मनेपदम् इत्यनेन भावे प्रयोगे धातुः यत्किमपि भवेत्. सो अत्र एतत् सूत्रं प्रथम अध्याये अस्ति. अत्र धातोः इति पदस्य तत्र अधिकारः नास्ति. सो भावे प्रयोगे कर्मणि प्रयोगे यत्किमपि धातुः अस्माभिः तत्र धातुपाठतः तत्र वयं नयामः तत्र आत्मनेपदी प्रत्ययः एव योजनीयम्. परन्तु पूर्वसूत्रे यः अस्माकं विषयः अस्ति अनुदात्तनित आत्मनेपदम् एतत् सूत्रे किमपि न लिखितं. तत्र प्रयोगः कीदृश भवेत् कर्तरिप्रयोग वा कर्मणि प्रयोग वा भावे प्रयोग वा. सो यदा वयं कोऽपि अनुदात्तेत् धातु पश्यामः अथवा नित् धातु पश्यामः तत्र सर्वदा इत्युक्ते त्रिषु प्रयोगेषु कर्तरिप्रयोगे कर्मणि प्रयोगे भावे प्रयोगे तत्र अस्माभिः आत्मनेपदी प्रत्ययः एव योजनीयम्. अनन्तरं वदति भावकर्मणोः आत्मनेपदं. सो भावे प्रयोगे कर्मणि प्रयोगे यत्किमपि धातुः तत्र अपि आत्मनेपदी प्रत्ययः एव योजनीयम्. अनन्तरं यः सूत्रम् अस्ति प्रथम अध्याये तृतीयपादे द्विसप्ततितमं सूत्रं स्वरित इत्त कर्त्री अभिप्राये क्रियाफले. अत्र प्रयोगविषये अपि अत्रापि प्रयोगविषये किमर्थं चेत् पूर्वे एव उक्तं भावे प्रयोगे कर्मणि प्रयोगे अस्माभिः तत्र न द्रष्टव्यं धातुः स्वरितेत् वा इत् वा अनुदात्तेत् वा अथवा णित् वा. परन्तु अत्र लिखितम् अत्र किं विशेषम् अत्र कर्त्री अभिप्राये कर्त्री अभिप्राये क्रियाफले. सो यदा तत्र क्रियायाः फलं कर्तारम् अभिप्रीयते चेत् तत्र तादृशस्वरितेत् अथवा तादृशनित् धातुः अनन्तरम् अस्माभिः तत्रापि आत्मनेपदी प्रत्ययः एव योजनीयम् इति तावदेव सूत्रं वदति. परन्तु तत्र पूर्वे लिखितं भावे अपि च कर्मणि प्रयोगे यदि स्वरितेत् धातु अस्ति तत्र अपि अस्माभिः आत्मनेपदी प्रत्ययः योजनीयम्. भावे प्रयोगे कर्मणि प्रयोगे नित् धातु अस्ति तत्र आत्मनेपदी प्रत्ययः योजनीयम्. सो अत्र किमर्थम् अत्र किं विशेषम् अस्ति यदि क्रियायाः फलम् अत्र धातुः उभयपदी भवति. सूत्रे उभयपदी इति कुत्रापि न लिखितम्. सो यदा क्रियायाः फलं कर्तारं प्रति गच्छति तदा अस्माभिः तादृशस्वरितेत् धातु प्रथमे तु सः धातुः स्वरितेत् भवेत् अथवा नित् भवेत्. यदि स्वरितेत् नास्ति तत्र नित् भवेत्. यदि नित् अस्ति मे बि स्वरितेत् नास्ति. कुत्रचित् नित् अपि भवितुं शक्नोति स्वरितेत् अपि भवितुं शक्नोति. सो ऐदर् आर् बोथ् टुगेदर्. सो स्वरितेत् धातु अथवा नित् धातुः यदि तत्र क्रियायाः फलं कर्तारं प्रति गच्छति तत्र अस्माभिः तत्रापि अस्माभिः आत्मनेपदी प्रत्ययः एव योजनीयम्. इदानीं तत्र प्रश्नः आयाति यदि क्रियायाः फलं कर्तारं प्रति न गच्छति अन्येषां कस्यचित् अन्यपुरुषस्य प्रति गच्छति चेत् तत्र अस्माभिः किं करणीयं. तत्र अस्माभिः परस्मैपदी प्रत्ययः योजनीयम् इति तत्र सूत्रव्याख्या आधारेण इति वयम् अवगन्तुं शक्यते. यत् व्याख्या दत्तं काशिकाकारः ये तत्र पूर्वव्याकरणाः सन्ति तेषां ते यत् उक्तं तदेव अस्माकं तदेव तत् अवगम तत् पठामः चेदेव अवगम्यते. यदि क्रियायाः फलं कर्तारं प्रति न गच्छति तत् तादृशस्वरितेत् अथवा नित् धातुः अनन्तरम् अस्माभिः परस्मैपदी प्रत्ययः योजने. एतावता पर्यन्तं महर्षि परस्मैपदी विषये किमपि न अत्र उक्तम्. एतानि सर्वाणि सूत्राणि आत्मनेपदी प्रकरणम् अस्ति प्रथमाध्याये तृतीयपादे. तत्र एकम् आत्मनेपदि प्रकरणम् अस्ति, तत्र एव एतानि सर्वाणि सूत्राणि दत्तानि। सो आत्मनेपदी यः संज्ञा अस्ति सः तिङ्प्रत्ययानां कृते, अन्तिमनव तिङ्प्रत्ययाः आत्मनेपदी संज्ञकाः, तत्र तङ्गानाम् आत्मनेपदी इति संज्ञासूत्रमस्ति, तस्य सूत्रस्य आधारेण एव एतत् अवगन्तुं शक्यते ये अन्तिमनव तङ्प्रत्ययाः एव आत्मनेपदी, अपि च शानच् कानच् प्रत्ययः ते अपि आत्मनेपदी प्रत्ययाः। सो आत्मनेपदी प्रत्ययाः कदा योजनीयं? यदा तत्र यदि तत्र स्वरितेत् अपि च इत् धातुः विषये क्रियायाः फलं कर्तारं प्रति गच्छति तदा एव आत्मनेपदी प्रत्ययः योजनीयं। सो अनेन तादृशस्वरितेत् अथवा अन्यत् धातुः धातौ उभयपदत्वम् इति गुणः आयाति, अनेन सूत्रेण एव आयाति। किमर्थं चेत् तत्र सर्वदा तादृशधातुः यः स्वरितेत् धातुः अथवा यः इत् धातुः, तादृशधातुः अनन्तरं सर्वदा तत्र कर्तरिप्रयोगे रूपद्वयम्, एकम् अस्ति परस्मैपदी तत्र लकाराणां रूपं, द्वितीयम् अस्ति आत्मनेपदी लकाराणां रूपम्, आत्मनेपदी प्रत्ययानां रूपम्। सो तत्र सर्वदा तादृशस्वरितेत् अथवा इत् धातुः तत्र रूपद्वयं सिद्ध्यते, तत्र रूपद्वयस्य तत्र अर्थभेदः अपि अस्ति। क्रियायाः फलं कर्तारं प्रति गच्छति, तत्र आत्मनेपदीरूपम् अस्माभिः योजनीयं। यदि क्रियायाः फलं कस्यचित् अन्यपुरुषस्य प्रति गच्छति चेत् तत्र तादृशस्वरितेत् नित् धातुः अनन्तरं परस्मैपदीप्रत्ययः योजनीयम्। अनन्तरं वयं दृष्टवन्तः शेषात् कर्तरि परस्मैपदम्, अत्र एव महर्षि कर्तरि इति पदं दत्तं, पूर्वे किमपि न उक्तम्। सो कर्तरिप्रयोगे ये शेषधातवः, शेष इत्यनेन ये अनुदातेत् न, नित् न, स्वरितेत् न, इत् न, तेषां विहाय, एतेषां चतुर्णां धातूनां विहाय ये अन्यधातवः, तेषाम् अनन्तरम् अस्माभिः कर्तरिप्रयोगे परस्मैपदीप्रत्ययः योजनीयं। किमर्थं चेत् पूर्वे एव उक्तं, भावे प्रयोगे, कर्मणि प्रयोगे तिङन्तपदस्य निर्माणार्थं तत्र अस्माभिः सर्वदा धातुः न द्रष्टव्यं, तत्र सर्वदा आत्मनेपदी प्रत्ययः एव योजनीयं, कर्मणि प्रयोगे, भावे प्रयोगे। अतः ये शेषधातवः तेषाम् अनन्तरं कर्तरिप्रयोगे अस्माभिः परस्मैपदी प्रत्ययः योजनीयं। सो लः परस्मैपदी इत्यनेन तत्र ये प्रथमनव प्रत्ययाः तेषां परस्मैपदी इति संज्ञा भवति, सो तादृशप्रत्ययः अस्माभिः योजनीयम्। अपि च कृतप्रत्ययेषु ये आत्मनेपदीसंज्ञकाः न, तेषां ते कृतप्रत्ययाः वयं तादृशशेषात् धातुः अनन्तरं योजयितुं शक्नुमः। वयं तत्र अभ्यासः अपि तत्र दृष्टवन्तः कथं तत्र धातुः इत्संज्ञकवर्णस्य आधारेण एव एतत् ज्ञानं भवति, धातुः किं पदी, धातौ किं गुणः, आत्मनेपदत्वम् अस्ति वा परस्मैपदत्वम् अस्ति अथवा उभयपदत्वम् अस्ति इति ज्ञानं वयं तत्र मूलरूपं दृष्ट्वा एव तत्र ज्ञातुं शक्यते। सो धातुपाठे यः मूलरूपम् अस्ति तत्र स्वराङ्कितधातुपाठे वयं तत्र तत्र चिह्नं दृष्ट्वा वयम् अवगन्तुं शक्यते कीदृशस्वरस्य अत्र इत्संज्ञा अस्ति। सो यस्मिन् धातु अनुदात्स्वरस्य इत्संज्ञा सः तस्मिन् आत्मनेपदत्वम् इति गुणः आयाति, यस्मिन् धातुः स्वरित्स्वरस्य इत्संज्ञा अस्ति तस्मिन् धातुः उभयपदत्वम् आयाति। अपि च यः धातुः णित् अस्ति कण्ठनकारस्य यस्मिन् धातुः इत् संज्ञा सः धातुः अपि तस्मिन् धातुः अपि उभयपदत्वं सोरि तत्र आत्मनेपदत्वम् इति गुणः। अपि च यः यस्मिन् तालुण्यकारस्य इत् संज्ञा तस्मिन् धातुः उभयपदत्वम् इति गुणः। तस्मिन् तादृशधातुः अनन्तरं वयं तत्र परस्मैपदीप्रत्ययः अपि योजयितुं शक्नुमः, आत्मनेपदीप्रत्ययः अपि योजयितुं शक्नुमः। अतः तत्र प्रत्यय प्रत्येकस्मिन् लकारे तत्र रूपद्वयं तादृशधातुः अनन्तरं सिध्यते. ये अन्यधातवः, ये शेषधातवः, कस्यचित् धातुः तत्र उदात्स्वरसि इति अस्ति चेत् सः उदात्तेत् भवति. उदात् स्वरसि इति यस्मिन् सः उदात्तेत्, परन्तु उदात्तेत् विषये कोऽपि सूत्रं नास्ति. एते सर्वाणि, यस्मिन् धातुः किमपि अनुबन्धवर्णः नास्ति तदपि शेषधातुः. अतः महर्षिणा लाघवार्थं तत्र किं कृतं, शेषात् कर्तरि परस्मैपदी इति सूत्रं दत्तं. सो शेषात् अन्येषां शेषधातु अनन्तरम् अस्माभिः कर्तरिप्रयोगे, केवलं कर्तरिप्रयोगे परस्मैपदीप्रत्ययः योजनीयम् इति सूत्रस्यार्थः. अस्तु, तत्र स्वराणां चिह्नं यत् अस्ति तत् अस्माभिः तत्र स्मर्तव्यम्. यदि स्वरः अनुदाते अनुदात् अस्ति, अनुदात् स्वरस्य चिह्नम् अस्ति, तस्य उपरि एकं लघु रेखा अस्ति, एकं लघुदण्डम् अस्ति उपरि, स्वरस्य उपरि. अपि च न सोरि, अनुदात् स्वरस्य अधोभागे एकं रेखा अस्ति, स्वरित् स्वरस्य उपरि एकं दण्डम् अस्ति, उदात् स्वरस्य कोऽपि चिह्नं नास्ति. अपि च अनुनासिक यः चिह्नम् अस्ति सः चन्द्रबिन्दुः अस्ति. सो स्वरः अनुनासिक अस्ति चेदेव तस्य इत्संज्ञा भवति. धातौ यः अवशिष्टस्वरः तस्य आधारेण पूर्वे वयं दृष्टवन्तः, इड् व्यवस्था ज्ञातुं शक्यते. कथम् अवशिष्टस्वरस्य आधारेण कथं तत्र इड् व्यवस्था भवति, तस्य कृते सूत्रं किम् इति वयम् अद्य पठामः. सो इड् व्यवस्था इति यः तत्र द्वितीयः विषयः अस्मिन् करपत्रे दत्तं, तत् आरभ्य अद्य पठामः. एतावता तत्र पदव्यवस्थाविषये कोऽपि प्रश्नः अथवा भ्रमः अस्ति चेत् कृपया पृच्छतु, अन्यथा तत्र इड् व्यवस्थाविषये वयं सरेम.
हरि ओम् महोदय. अनुदात् आत्मनेपदं लिखितम् अस्ति सूत्रं, श्रूयते वा? तत्र अनुदात् अनुदात् विषये ईत् तु लिखितं नास्ति, नीते विषये तु लिखितम् अस्ति नित्. अनुदात्त कथं जानामि कि नीते नीते लिखितमस्ति यत् सूत्रे.
एतत् सूत्रं बहुव्रीहि द्वन्द्व गर्भ बहुव्रीहि समासः अस्ति. एतत् सामासिक पदः, सो समासः सम्यक्तया जानीमः चेदेव अवगन्तुं शक्यते. आम्, सो अत्र लिखितम् अनुदातश्च न च. सो अनुदात् नौ, प्रथमे तत्र द्वन्द्वसमासः, अनुदातश्च न च. सो अनुदात् नौ, अनन्तरं तत्र अनुदात् नौ इतौ यस्य सः अनुदातनित्. सो अनुदात् नौ इतौ द्विवचने अस्ति, अतः इतौ इत् इत्युक्ते इत् संज्ञा. सो इत् इतौ, सो अनुदात् नौ इतौ यस्य सः अनुदातनित्. सो न केवलम् अत्र प्रथमे अत्र द्वन्द्वसमासः, सो अनुदातश्च न च, न इत्युक्ते कण्ठनकारः च. किम् इतौ अनुदा इत् न इत् यस्य सः अनुदातनित्, अनन्तरं बहुव्रीहि समासः. सो एतत् द्वन्द्वगर्भ बहुव्रीहि समासः अस्ति. सो अनुदात इत् इत्युक्ते अनुदातेत्, नकार इत् इत्युक्ते नित्. सो अनुदातनित् तादृश, अतः अत्र दलद्वयं, न केवलम् अनुदातेत् अनुदात इत् विषये, अपि च नकार इत् विषये अपि अस्ति. सो अत्र दलद्वयं, तथैव स्वरित इत् तत्रापि द्वन्द्वगर्भ बहुव्रीहि समासः अस्ति. स्वरित इत्
महोदय, उदात् अस्ति, उदाते इत् भवति अन्यथा न भवति, तत्रापि मतिजहके प्रश्नपदी भवति न?
न, उदात् स्वरस्य कुत्रचित् उदात् स्वरस्य इत्संज्ञा अस्ति, परन्तु उदातेत् विषये कस्मिन्नपि सूत्रे किमपि न उक्तम्. सो यदि धातुः कस्यचित् धातौ मध्ये उदात् स्वरस्य इत् अस्ति, त तत्र अस्माभिः किं करणीयम्? उदात्तेत् विषये तु कोऽपि सूत्रमेव नास्ति. अतः महर्षिणा किं कृतम्? उदात्तेत् धातुः अथवा तत्र यस्मिन् धातुः कोऽपि अनुबन्धस्वरः अपि नास्ति, तादृश सर्वेषां यथा अथवा कुत्रचित् धातुः तत्र तु स्वरः एव अस्ति. कोऽपि भिन्न व्यञ्जनस्य इत् अस्ति कुत्रचित् धातुः कस्मिंश्चित् धातु, यदि कोऽपि अन्यव्यञ्जनस्य नकार इकार विहाय कोऽपि अन्यव्यञ्जनस्य इत् अस्ति इत् संज्ञा अस्ति चेत् किं करणीयं? सो तत्र महर्षिणा तेषां सर्वेषां तादृशसर्वेषां धातूनाम् एकमेव विधि दत्तम्. अतः शेषात्, सो शेषात् इत्यनेन न केवलम् उदात्तेत् धातुः परन्तु भूधातु अपि. भूधातौ तत्र न तु अनुदात्तेत्, न नित्, न स्वरितेत्, न इत्. सो तत्रापि कोऽपि अनुबन्धवर्णः एव नास्ति. तत्र किं करणीयम्? तत्र किं करणीयं? तत्र कर्तरिप्रयोगे अस्माभिः परस्मैपदीप्रत्ययः योजनीयं वा? सो महर्षिणा एकमेव पदम्, अन्येषां सर्वेषाम् एतेषां विहाय. सो ही एक्स्क्लूडेड् दीस् फोर् धातु, फोर् टैप् आफ् धातु, स्वरितेत्, इत्, अनुदात्तेत्, अपि च णित्. एतेषां विहाय अन्येषां सर्वेषां धातूनाम् अनन्तरं कर्तरिप्रयोगे अस्माभिः परस्मैपदीप्रत्ययः एव योजनीयम्. सो फार् लाघवार्थं ही सेड् शेषात् कर्तरि परस्मैपदी. सो पूर्वे यत् उक्तम् आत्मनेपदिविषये, तत्र तेषां विहाय ये अन्य सर्वे धातवः तेषाम् अनन्तरम् अस्माभिः कर्तरिप्रयोगे परस्मैपदीप्रत्ययः योजनीयम् इति शेषात् इत्यनेन तत्र शेषात् इति पदस्य तत्र अन्वयः. सो न केवलम् अनुदात्तेत्, परन्तु यस्मिन् धातुः कोऽपि इत्संज्ञकवर्णः एव नास्ति तत्र अपि शेषात्. सो तदपि शेषधातुः. किमर्थं चेत् भूधातुः अनुदात्तेत् न, नित् न, स्वरितेत् न, इत् न, अतः शेषधातुः. सो तत्र अपि कर्तरिप्रयोगे परस्मैपदीप्रत्ययः योजनीयम्. सो न केवलम् उदात्तेत् धातुः परस्मैपदी भवति, परन्तु भूधातुः यस्मिन् धातौ कोऽपि अनुबन्धस्वरः अनुबन्धवर्णः एव नास्ति तत्र अपि परस्मैपदीप्रत्ययः एव योजनीयम् इति तत्र शेषात् इति पदस्य आधारेण वयम् एतत् सर्वम् अवगन्तुं शक्यते. अस्तु, इदानीं तत्र इडव्यवस्थाविषये पठामः. चेतना भगिनी पठति वा भगिनि?
हिद्व्यवस्था. इत् नाम किम्? प्रायः अस्माभिः सर्वैः अवलोकितं स्यात् यत् तिङन्तेषु कृदन्तेषु च कुत्रचित् इकारः श्रूयते, कुत्रचित् न. यथा तिङन्तेषु गमिष्यति इत्यत्र मकारोत्तरः इकारः अस्ति, द्रक्ष्यति इत्यत्र एवं कोऽपि इकारः नास्ति. कृदन्तेषु पठितुम् इत्यत्र तकारोत्तरः इकारः अस्ति, कर्तुम् इत्यत्र एवं कोऽपि इकारः नास्ति. अस्य इकारस्य नाम इट् आगमः, इडागमः. तर्हि कुत्र इडागमः संयुज्यते अपि च कुत्र न इत्यस्य विज्ञानस्य नाम इड् व्यवस्था. यत्र इडागमस्य योजनार्थं धातोः अनुकूलता वर्तते तत्र धातुः सेत् इत्युच्यते. सेत् इटा सह बहुव्रीहिसमासः. एतादृशबहुव्रीहिसमासस्य यस्य सह, येन सह इति शैली न भवति, किन्तु अन्यपदप्राधान्यम् अस्ति प्रधानं न स न वा इत् अपि तु धातुः यत्र एतादृशी अनुकूलता नास्ति तत्र धातुः अनट् इत्युच्यते अनट् न इट् इट् राहित्यं यस्य सः सामान्यतया धातुः सेट् अस्ति चेत् अपि च तस्मात् यः प्रत्ययः विहितः अस्ति सः अपि सेट् अस्ति चेत् तर्हि तत्र इडनुकूलता विद्यते नाम तस्यां दशायाम् इडागमः भवितुम् अर्हति धातुप्रत्यययोः कश्चन इडानुकूलो नास्ति चेत् सामान्यतया तत्र इडानुकूलता नास्ति अपवादाः सन्ति किन्तु सामान्यनियमः अयम् इत्युक्ते
यत्र इड् व्यवस्था इत्युक्ते किं तस्य विषये वदतु
इत्युक्ते इकारस्य आगमः कुत्र आयाति कुत्र न आयाति इति गमिष्यति पदमस्ति तत्र इडागमः अस्ति परन्तु द्रक्ष्यति इत्यत्र इकारः नास्ति अतः कुत्र आयाति इति द्रष्टव्यम् कृदन्तेषु पठितुं तुमुन् प्रत्ययस्य इकारः आगमः अस्ति परन्तु कर्तुं तत्र इडागमः नास्ति एतत् उदाहरणे कुत्र इडागमः भवति इति प्रश्नः अस्ति इडागमः आयाति चेत् तत् धातुः सेत् इति उच्यते इडागमः नास्ति चेत् अनित् इति उच्यते सेत् इत्युक्ते एतत् न अवगतं भगिनि इटासः
इटासः अत्र तृतीया अस्ति भगिनि इटा इति तृतीयान्तं पदम् अस्ति इट् इट् इति यः अस्ति तत्र इट् इति आगमः यदि वयम् एतत् शब्दं एतत् शब्दं स्वीकुर्मः चेत् तत्र तृतीया विभक्ति भवति तृतीया एकवचनं भवति इटा किमर्थम् अत्र सः इति पदम् अस्ति वयं जानीमः सः युक्ते तत्र रामेण सह तत्र यदा तत्र सः इति पदम् आयाति तत्र सर्वदा तृतीया विभक्ति यस्य कृते तत् पदं प्रयुक्तं तत्र तृतीयाविभक्तिप्रयोगः भवति सो इटा सः इति यः अस्ति सः बहुव्रीहिसमासः प्रायशः इत्युक्ते मोस्ट् आफ् द वेन् वि से बहुव्रीहिसमासः यथा तत्र अनिट् सो न इट् यस्य सः अनिट् प्रायशः तत्र यः विग्रहवाक्यं भवति तत्र यस्य सः अथवा येन सः इति तत्र विग्रहवाक्ये एतत् पदद्वयं कुत्रचित् आयाति ऐदर् यस्य सः आर् येन सः परन्तु अत्र लिखितं यदा वयम् इटा सः इति वदामः तत्र एतत् प्रयोगः न भवति कुत्र विग्रहवाक्ये तत्र यस्य सः येन सः इति शैली तत्र नास्ति परन्तु सि वेन् वि हौ डु वि अण्डर्स्टाण्ड् देट् समास् इस् बहुव्रीहिसमासः यदि विग्रहवाक्ये एतत् पदद्वयं तत्र अस्ति यस्य सः आर् येन सः सो दिस् इस् बेसिक्लि अ हिण्ट् वेन् वि बै विच् वी कम् टु अण्डर्स्टाण्ड् देट् दिस् समासः इस् बहुव्रीहिसमासः परन्तु अत्र तो एतादृशः शैली नास्ति, केवलम् अस्ति लिखितम् इटासः। सो कथं जानीमः एतद् बहुव्रीहि समासः? तस्य विषये एव दत्तं, कुत्रचित् बहुव्रीहि समासे यस्य सः येन सः इति विग्रहवाक्ये वयं न तत्र न भवति, योजयितुं न शक्नुमः। परन्तु तत्र अन्यपद बहुव्रीहि समासे किम् अस्ति? अन्यपदप्रधानता इत्युक्ते न अत्र इटा इति विषये किमपि उक्तं, न सः विषये उक्तम्, परन्तु कस्यचित् अन्येषां तत्त्वस्य अन्येषां विषयस्य विषये अस्ति। सो तत्र इटासः यः अस्ति धातो विषये, सो धातु इटासः अस्ति चेत् सः धातुः सेट् भवति, इटासः नास्ति चेत् सः धातु अनिट् भवति। सो अनिट् इत्युक्ते न इट्, न इट्, सो न इट् यस्य सः अनिट्, सो अनिट् इति अनिट् अपि धातुविषये एव, सेट् अपि धातुविषये एव। सो इटासः कुत्रचित् इटासः वदामः चेत् प्रत्ययः, यदि प्रत्ययः इडागमस्य सः अस्ति, इडागमस्य समेत अस्ति चेत् सः सेट् प्रत्ययः। सो प्रत्ययः सेट् अस्ति वा अनिट् अस्ति वा तस्य कृते सूत्रम् आवश्यकम्, परन्तु केवलम् अत्र एतत् सेट् इत्युक्ते किं तस्य विषये एव दत्तम्, एतत् बहुव्रीहि समासः अस्ति इटासः, परन्तु अत्र धातुः अथवा यस्य विषये उक्तं सेट् धातुः अथवा सेट् प्रत्ययः। प्रायशः वयं धातुविषये एव एतादृशः नामकरणं तत्र तस्य प्रयोगः कुर्मः। सो वि से धातुः सेट् वा अनिट् वा, यदा धातु सेट् अस्ति तस्य अर्थः अस्ति सः इटासः आयाति, यदि धातुः अनिट् अस्ति तत्र इड् अनुकूलता न वर्तते, तस्मिन् धातु इड् अनुकूलता नास्ति, परन्तु यदि धातु सेट् तत्र इड् अनुकूलता अस्ति इति तदेव अस्ति तस्य अर्थः। अत्र लिखितम्, अत्र पठतु सामान्यतया।
सामान्यतः धातुः सेट् अस्ति चेत् अपि च तस्मात् यः प्रत्ययः विहितः अस्ति सः अपि सेट् अस्ति चेत् तर्हि तत्र इडनुकूलता विद्यते।
एतस्य वाक्यस्य अर्थः कः?
धातुः सेट् अस्ति चेत् तस्मात् यः प्रत्ययः विहितः अस्ति, तस् विहितः कीप्स् अपीयरिङ्ग् भगिनि, बट्
विहितः इत्युक्ते तस्य अनन्तरं यत् तत् उक्तं, यथा तत्र धातोः अनन्तरं लट् विहितः भवति, कथं वर्तमाने लट् इत्यनेन लट् विहितः भवति, सो तस्य अनन्तरं यत् विधीयते तस्मात् यः प्रत्ययः विहितः, विहितः इत्युक्ते सूत्राधारेण विहितः, वयं तु योजयितुं न शक्नुमः, सूत्राधारेण यत् प्रत्ययः विहितः, यदि प्रत्ययः अपि सेट् अस्ति चेदेव तत्र इडानुकूलता विद्यते। सो न केवलं प्रत्ययः सेट् भवेत् तत्र इडागमः भवितुं शक्नोति, न, प्रत्ययः इडनुकूलः अस्ति, प्रत्ययः तु कस्मात् विधीयते, प्रत्ययः कस्मात् विधीयते?
सूत्राधारेण
कस्मात् विधीयते? कस्मात् इत्युक्ते कस्य अनन्तरं, कस्मात् अनन्तरं प्रत्ययः विधीयते इत्युक्ते धातोः अनन्तरं प्रत्ययः विधीयते, अत्र तु धातुविषयः, अथवा प्रातिपदिकात् प्रत्ययः विधीयते, प्रातिपदिकात् प्रत्ययः विधीयते, धातोः प्रत्ययः विधीयते, केवलं सी मन्विषे प्रत्ययः, प्रत्ययकं प्रत्ययः कुत्र आगन्तुं शक्यते, प्रकृति अनन्तरम् एव आगन्तुं शक्यते। सो प्रत्ययः कस्मात् विधीयते इति प्रश्ने सति चेत् प्रकृति प्रकृति अनन्तरं विधीयते अथवा धातोः अनन्तरं विधीयते अथवा प्रातिपदिकात् विधीयते. सो अत्र तु अस्माकं विषयः धातु अस्ति. सो यस्मात् प्रत्ययः विधीयते सः अपि सेट् भवेत्. न केवलं प्रत्ययः सेट् अस्ति तावत् सफिशियण्ट् नास्ति, यस्मात् सः प्रत्ययः विहितः भवति सः अपि सेट् भवेत्. सो धातु सेट् भवेत्, प्रत्ययः इडनुकूल सेट् भवेत्, तदा एव इडनुकूलता विद्यते, तदा एव इट् आगन्तुं शक्यते. सो यदा तत्र गम् योगस्य भवति भविष्यत्काले लृट् लकारे तत्र स्य इति प्रत्ययः धातोः अनन्तरं विधीयते. तत्र स्यतासि लृ लुटो इति सूत्रमस्ति. सो यदि धातोः अनन्तरं तत्र लृट् लकारस्य विवक्षा अस्ति तत्र धातोः स्य प्रत्ययः विधीयते. सो गम् धातु लृट् लकारस्य विवक्षायां गम् योगस्य भवति. स्य भवति चेत् यः स्य प्रत्ययः सः इडनुकूलप्रत्ययः. कथम् इति अग्रे वयं सूत्राधारेण पश्यामः. स्य प्रत्ययः इडनुकूल अस्ति, परन्तु तत्र गम् इडनुकूल अस्ति वा नास्ति तदपि द्रष्टव्यम्. सो यस्मात् स्य विधीयते सः अपि सेट् भवेत्, तदा एव इडनुकूलता विद्यते इति वाक्ये लिखितम्. सो स्य केवलं स्य सेट् अस्ति तत् सफिशियण्ट् न इड् व्यवस्था विषये. यस्मात् स्य विधीयते सः अपि सेट् भवेत्. सो स्य कस्मात् विधीयते? धातोः विधीयते. स्य तु क्रूधातु अनन्तरमपि लृट् लकारस्य विवक्षायां स्य विधीयते, परन्तु स्य तु इडनुकूल अस्ति, तत्र इडगमः भवितुं शक्नोति, परन्तु क्रूधातु इडनुकूल नास्ति. सो तत्र न भवति, तत्र इकारस्य आगमः न भवितुं शक्नोति. किमर्थं चेत् तत्र स्य कृ विधीयते, क्रूधातुतः विधीयते, परन्तु क्रूधातु इडनुकूल नास्ति, अनिट् अस्ति, अतः तत्र इडागमः न भवति. सो केवलं प्रत्ययः इडनुकूल अस्ति. किमर्थं चेत् सि व्याकरणे इट् इति आगमः प्रत्ययस्य आगमः, प्रत्यये इडागमः भवति. सो प्रत्ययः तुमुन् अस्ति वा स्य अस्ति वा अथवा तत्र कोऽपि अन्यप्रत्ययः तवतु अस्ति वा त्व अस्ति वा क्त प्रत्ययः अस्ति वा, तादृशप्रत्ययानां तत्र इड् आगमः भवति. सो इड् बिकम्स् इस्य, इतुम्, इतवत्, इतवत् भवति. परन्तु इतवत् कस्मात् विधीयते तदपि द्रष्टव्यम्. यदि इस्य गम अनन्तरं विधीयते तत्र इडागमः भवति. सो इट् बिकम्स् गमिष्यति. परन्तु यदा द्रक्षधातु पश्यामः तत्र यद्यपि स्य अस्ति, इस्य भवति, परन्तु द्रक्ष सेट् नास्ति, अनिट् अस्ति, अतः तत्र इडागमः न भवितुं शक्नोति, तत्र निषेधः भवति. किमर्थं चेत् अत्र स्य इति प्रत्ययः द्रक्षविषये अस्ति, न तु गम् विषये. सो यदा वयम् इड् इति आगमस्य विषये चिन्तनं कुर्मः, न केवलं प्रत्ययः सेट् भवेत्, धातु अपि सेट् भवेत्. यदि धातु अपि सेट् अस्ति तत्र एव इडागमः भवति इति लिखितम्. सो यस्मात् प्रत्ययः विहितः भवति, न केवलं सः एव सेट्, परन्तु यदि धातुः अपि सेट् अस्ति चेदेव तत्र वयं किं वदामः, तत्र इडनुकूलता विद्यते. अनन्तरमपि पठतु, नाम तस्यां दशायाम् इडागमः भवितुम् अर्हति. सो तत्र एव इडागमः भवति. अन्तिम एतदपि पठतु.
धातुप्रत्यययोः कश्चन इडानुकूलो नास्ति चेत् सामान्यतया तत्र इडानुकूलता नास्ति. अपवादाः सन्ति, किन्तु सामान्यनियमः अयम्.
सो यदा वयं जानीमः इदानीं गम् इस् एन् सेट् धातुः, सो गम् इस् अ सेट् धातुः, परन्तु तत्र सर्वदा तत्र इडागमः तु प्रत्ययस्य आगमः. सो यदा वयं गम् योग शप् कुर्मः, गम् योग शप् योगति, सो तत्र तु इडागमः, तत्र इकारः न श्रूयते, तत्र गम् बिकम्स् गच्छ, सो गच्छति इति अस्ति, गच्छीति, तत्र इकारः न श्रूयते. सो केवलं इदानीं वयं जानीमः गम् सेट् अस्ति, सो किमर्थं तत्र सर्वदा तत्र इडागमः भवति वा? न. सो केवलं धातु सेट् अस्ति, परन्तु प्रत्ययः अपि सेट् भवेत्. सो तत्र शप् सेट् नास्ति, सो शप् अनन्तरं शप् शप् प्रत्ययस्य इडागमः न भवति. तथैव तिप् प्रत्ययस्य सार्वधातुकप्रत्ययानाम् इडागमः न भवति. किमर्थं? सूत्रं तादृशं महर्षिणा निर्मितम्, आर्धधातुकस्य सेड् इति सूत्रमस्ति. सो ये यत्किमपि सार्वधातुक प्रत्ययः तत्र कदाचित् अपि इडागमः न भवति, परन्तु अत्र लिखितम् अपवादाः सन्ति, बट् विशिष्टधातूनां विषये तत्र अपवादाः सन्ति, परन्तु सामान्यनियमः किं? सार्वधातुकप्रत्ययानाम् इडागमः न भवति. यद्यपि धातु इडानुकूल अस्ति, तथापि तत्र इडागमः न भवति. सो वट् वी हेव् अण्डर्स्टूड् इस् देट् प्रत्ययः अपि सेट् भवेत्, धातु अपि सेट् भवेत्, तदा एव इडागमः भवति. यदि प्रत्ययः सेट् नास्ति, धातु सेट् अस्ति, तत्रापि इडागमः न भवति. सेट् अस्ति परन्तु क्रु धातुः सेट् नास्ति, तत्र इडागमः न भवति. तथैव तुमुन् प्रत्ययः, तुमुन् प्रत्ययः सेट्, तत्र इडागम सामान्यनियम आधारेण तुमुन् विषये सर्वदा इडागमः भवति, परन्तु धातुः अपि सेट् भवेत्. कृ धातु अनिट् धातु, कृ धातु विषये इडागमः न भवति, अतः कर्तुम् एव भवति. सो कृदन्तेषु अपि, कृदन्तेषु किं भवति? कृदन्तेषु अपि धातुयोगप्रत्ययः भवति. सो इडागमः प्रत्ययस्य आगमः. सो प्रत्ययः कृत् प्रत्ययः भवेत् वा विकरणप्रत्ययः भवेत् वा तिङ्प्रत्ययः भवेत्, यत्किमपि प्रत्ययः अस्ति तत्र इडागमः सूत्राधारेण भवति. यदि सूत्रस्य प्रसक्तिः अस्ति, इडागमः भवति, परन्तु धातु अपि सेट् भवेत् इति लिखितम्. सो धातु अपि सेट् अस्ति, प्रत्ययः अपि सेट् अस्ति, तदा एव इडागमः भवति. यदि कोऽपि एकं सेट् नास्ति, तत्र इडागमः न भवति इति सामान्यनियमः, परन्तु तत्र अपवादाः सन्ति इति लिखितं. तत्र सूत्राधारेण एव पश्यामः किम् अपवादः. यथा तत्र
करिष्यति, इडागमः अस्ति खलु कृ धातोः,
तदेव लिखितं, तत्र अपवादाः सन्ति, परन्तु सामान्यतया यदि वयं कृ धातुः पश्यामः, कृ धातु अन्यट् धातुः, तुमुन् तव्य तृच् त्वा लेप् नास्ति तवतु क्त एते सर्वे सेट् दातव सेट् प्रत्ययः तवतु त्वा तृच् तव्य तुमुन् परन्तु अत्र कृदन्तेषु कुत्रापि इडागमः न भव तत्र न द्रष्टव्यम् नवुल् इति प्रत्ययः नवुल् प्रत्ययः अनिट् प्रत्ययः अनियर् प्रत्ययः अनिट् प्रत्ययः ल्युट् प्रत्ययः अनिर् प्रत्ययः अनिट्
प्रत्ययः
सिमिलर्ली महोदय यदा वयं सूत्र पठामः न तत्र एतत् सर्वं वयम् अवगन्तुं शक्यते. इदानीं तु केवलम् उदाहरणरूपेण तव्य तुमुन् तृच् त्वा तवतु एण्ड् क्थ एते सर्वे सेट् प्रत्ययः परन्तु अन्ये सर्वे अनिट् प्रत्ययः सो परन्तु अत्र न दृश्यते इदानीं कर्तरिप्रयोगे करिष्यति. अत्र तु न लिखितं ति. अत्र यदि वयं कृ धातु पश्यामः अत्र किं लिखितं तनादिगणे अस्ति उभयपदी धातु अस्ति किमर्थं चेत् अत्र तालुन्यकारस्य इति अस्ति डुक्राञ् इति धातुः न्यकारस्य इति अस्ति चेत् उभयपदी धातु भवति स्वरितनित्यकर्त्री अभिप्राये क्रियाफले इत्यनेन उभयपदी भवति धातु सकर्मक अस्ति परन्तु अनिट् अस्ति सो कृ धातु विषये प्रायशः तत्र अपवादः किमर्थं चेत् धातुः अनिट् अस्ति धातुः इडनुकूलः नास्ति अनिट् अस्ति सेट् नास्ति परन्तु किमर्थं स्य विषये अत्र इडागमः भवति तद् द्रष्टव्यं भगिनि अत्र तु सूत्रं न लिखितम् ऐ थाट् सूत्र विल् बि गिवन् ओवर् हियर् सूत्रं न लिखितं सो प्रायशः कृ धातु विषये अपवादसूत्रम् अपेक्षितम् अतः अत्र लिखितम् अपवादाः सन्ति
नमस्कारः गम्र एव
अपवादाः सन्ति केषां विशिष्टधातूनां तत्र अपवादाः सन्ति
गम्र एव अपवादः
भवति
वा
गम् धातु तु सेट् धातु महोदय गम् धातु सेट् धातुः तत्र तत्र गमिष्यति इति भवति परन्तु कृ धातुः मूलतः अनिट् धातुः परन्तु लृट् लकारस्य रूपं पश्यामः चेत् तत्र किमस्ति करिष्यति सो इष्यति भवति तत्र सो किमर्थं तत्र इकारस्य आगमः भवति
किन्तु गम्र औपदेशिक धातुः अस्ति न गम् गम्र
तेन किं
तत्र
तत्र लू इति स्वरस्य इत्संज्ञा अस्ति अनुनासिक अस्ति अपि च कोऽपि चिह्नं नास्ति चेत् उदात्तेत् अस्ति अतः परस्मैपदी धातु गम् लू परस्मैपदी धातुः सो अत्र यः अकारः तस्य आधारेण वयं ज्ञातुं शक्यते गम् लू अपि अनिट् अस्ति सत्यं गम्लु अपि अनिट् अस्ति सो तत्र तत्र अपि न लिखितं महोदय न लिखितं किमर्थम् अत्र यद्यपि अनिट् धातु अस्ति सो ऐ विल् चेक् दि सूत्र तत्र अपवादसूत्रं किं परन्तु तत् अस्माकं विषयः नास्ति अत्र केवलं लिखितम् अपवादाः सन्ति केषाञ्चन धातूनां तत्र अपवादः सन्ति यस्य आधारेण तत्र इडागमः भवति परन्तु सामान्यनियमः कः धातु अपि सेट् भवेत् प्रत्ययः अपि सेट् भवेत् तदा तु कोऽपि अपवादसूत्रस्य आवश्यकता एव नास्ति सो सामान्यनियम आधारेण धातु सेट् अस्ति प्रत्ययः सेट् अस्ति चेदेव इडागमः भवति यदि धातुः सेट् नास्ति तत्र केन सूत्रेण इडागमः भवति तस्य कृते सूत्रम् आवश्यकम् अत्र तु न दत्तं यदि अहम् अत्र पश्यामः अत्र लिखितम् अस्ति केवलम् आर्धधातुकस्येड् वलादेः सो आर्धधातुकस्येड् वलादेः इत्यनेन तत्र आदेशप्रत्ययोः परन्तु गम् तु गम् अनिट् अस्ति सो कथम् अत्र इडागमः भवितुं शक्नोति तस्य कृते एकम् अन्यत् सूत्रम् अपेक्षितम् तत् सूत्रं किं दृष्ट्वा अहं पुनः अग्रे वदामि अस्तु सो तत्र अपवादाः सन्ति सो सामान्यनियमः कः धातु अपि सेट् भवेत् प्रत्ययः अपि सेट् भवेत् तदा एव इडागमः भवितुं शक्नोति अन्यथा तत्र सामान्यनियमाधारेण इडागमः न भवितुं शक्नोति इति तत्र लिखितम् अवगतं वा भगिनि अग्रे अपि एतत् विषये एव एतस्य विषये किञ्चित् विवरणं दत्तम् अस्तु अग्रे कः पठति उषा भगिनी पठति वा भगिनी ध्वनिः श्रूयते वा मम ध्वनिः श्रूयते वा
श्रूयते सम्यक् श्रूयते
उषा भगिनी अस्ति वा नो चेत् अनुसूया भगिनी अनुसूया भगिनी अग्रे पठति वा भगिनी
सः इति शैली
इति संज्ञकेन अचवर्णेन
अचवर्णेन धातुः किं पदी इति निर्णयः क्रियते अपि च अवशिष्टस्वरेण निर्णयः क्रियते अयं धातुः सेट् अनिट् वा इति अस्माभिः उक्तम् इत्संज्ञकानां वर्णानां निष्कासनानन्तरं यः स्वरः अवशिष्यते तेन स्वरेण धातुः सेट् वा अनिट् वा इति निर्णयः क्रियते अनेन स्वरेण इट् व्यवस्था ज्ञायते यदा वयम् इत्संज्ञकं कुर्मः तदा सद्यकानन्तरं निष्कास वर्णानां निष्कासनानन्तरं यः स्वरः अवशिष्यते तेन स्वरेण धातुः सेट् वा अनिट् वा इति निर्णयं कर्तुं शक्यते अच्छा इत्सन्निकेन अचुवर्णेन धातुः किं पदि इत्सन्निकेन अचुवर्णः धातुः किं पदि इति निर्णयं कर्तुं सहायते अपि च अविशिष्टस्वरेण निर्णयः क्रियते अयं धातु सेट् वा अनिट् वा इति अवशिष्टधातुं दृष्ट्वा वयं जानीमः तर्हि अत्र ईद् व्यवस्था ईदृशी इति द्रष्टव्यं वृत्तान्ते पठ इति धातुः ठकारोत्तरवर्ती यः अकारः अस्ति सः अनुनासिक उदात्तः अस्ति अतः धातुः परस्मैपदि अकारोत्तरवर्ती यः अकारः अस्ति सः अवशिष्टस्वरः इति उच्यते अयम् अकारः कीदृशः इति ध्येयम् अवशिष्टस्वरः अनुदात्तः चेत् धातुः अनिट् अयम् अवशिष्टस्वरः उदात्तस्वरितो वा धातुः सेट् अकारोत्तरवर्ती अकारः उदात्तः अतः धातुः सेट् पठ धातु अकारः उदात्तः अस्ति अतः तत् धातुः सेट् भवति गै धातोः धातौ ऐकारः अनुदात्तः अतः धातुः अनिट् गै धातोः किमपि इत्संज्ञाकसूत्रस्य अवकाशं नास्ति परन्तु गै धातुः अनुदात्तः अस्ति यतः अनिट् भवति मे धातोः नकारस्य इत् संज्ञा मे अवशिष्यते मेन् धातोः अनुदात्तनित् इति सूत्रेण अन्ते विद्यमान नकारस्य इत् संज्ञा भवति अतः मे अवशिष्यते मे अनुदात्त अस्ति अनुदात्त अस्ति अतः अनिट् भवति स्यू इति धातोः धातौ उकारः अनुनासिकः अतः तस्य इत्संज्ञां लोपः च शिव इति अवशिष्यते षकारोत्तरवर्ती यः इकारः सः उदात्तः अतः धातुः सेट् उपर्युक्तस्य नियमस्य कारणं यदि अवगन्तुम् इच्छेम तर्हि सूत्रद्वयं द्रष्टव्यं भवति
मेङ्गधातुः भगिनि, मेङ्गधातुः नकारस्य इति संज्ञा केन सूत्रेण?
हलन्त्यम् इति सूत्रेण.
हलन्त्यं सूत्रेण नकारस्य इति संज्ञा. तेन किं धातुः किं भवति? किं पदि
अनुदातमिति सूत्रेण अनुदात भवति.
अनुदातधातुः धातु न अनुदातनित आत्मनेपदी इति सूत्रेण धातुः मेङ् इति धातुः आत्मनेपदी भवति. आत्मनेपदी भवति. अपि च अत्र
इति सूत्रेण भवति खलु.
केन सूत्रेण?
अनुदातानि.
न अनुदातनित आत्मनेपदी इति सूत्रं कस्य विषये? पदविषये. आत्मनेपदी वा परस्मैपदी वा उभयपदी वा तस्य विषये सूत्रम् अस्ति. सो तेन सूत्रेण मेङ् धातुः आत्मनेपदी धातुः. किमर्थं चेत् नकारस्य इति अस्ति, नित् अस्ति, अतः आत्मनेपदी धातुः. सिमिलर्ली गै धातुः, गै धातु किं पदी भगिनि?
गै धातु अधोः अनुदात्त अस्ति, अतः धातुः अनित्येव भवति. परन्तु उदात्त इत्संज्ञकः कोऽपि नास्ति, अतः
अतः
अतः आत्मनेपदी भवति.
धातुः कोऽपि अनुबन्धवर्णमेव नास्ति.
अनुबन्धवर्णः नास्ति.
अतः केन न अनुदात् अत्र गै धातुः स्वरः अनुदात् स्वरः, तत्तु भिन्नविषयः. परन्तु गै धातुः किं पदी इति प्रश्ने सति चेत् केन सूत्रेण? शेषात् कर्तरि परस्मैपदी. गै धातुः किमर्थम् अनुदात्तेत् नास्ति, नित् नास्ति, स्वरितेत् नास्ति, इत् नास्ति?
शेषात् कर्तरि परस्मैपदम् इति सूत्रेण
गै धातुः
परस्मैपदी भवति.
परस्मैपदी भवति, अतः ति इति योजयितुं शक्नुमः. सो इट् बिकम्स् गायति. गाय बिकम्स् गायति लट्लकारे. परन्तु गै धातुः अत्र यः अत्र एकमेव स्वरः अस्ति, ऐकारः. ऐकारः अनुदातस्वरः. सो तस्य आधारेण, अवशिष्टस्वरस्य आधारेण धातुः सेट् वा अनिट् वा, इत्संज्ञक स्वरस्य आधारेण धातुः तत्र परस्मैपदी वा उभयपदी वा आत्मनेपदी वा. परन्तु अत्र तु कोऽपि इत्संज्ञक वर्णः एव नास्ति, अतः अत्र कस्य सूत्रस्य प्रसक्तिः? शेषात् कर्तरि परस्मैपदम्. तेन सूत्रेण गाय धातुः परस्मैपदी प्रत्ययः स्वीकरोति कर्तरि प्रयोगे, अतः गायति इति रूपम् अस्ति, ति इति रूपम् अस्ति. परन्तु सो अत्र यः अवशिष्टस्वरः सः अनुदातस्वरः, तस्य इत्संज्ञा न भवति, सः अवशिष्टस्वरः, द रिमेनिङ्ग् स्वर. सो अनुदातस्वरः यस्मिन् धातौ, सो तेन अनिट् भवति. सो यद् स्वरः अवशिष्टस्वरः अनुदात् तदा एव धातु अनिट् भवति. अन्य कोऽपि स्वरितेत् स्वरः अस्ति वा उदात् स्वरः अस्ति, सः धातुः सेट् भवति. यथा तत्र सो यः पठधातुः, पठधातु एकं स्वरः इत्संज्ञक स्वरः, पकार उत्तरवर्ती स्वरः अवशिष्टस्वरः, सः उदात्तस्वरः. पकार उत्तरवर्ती अनन्तरं यः अकारः सः उदात्तः, अतः धातुः सेट् भवति. सो अवशिष्टस्वरः केवलम् अवशिष्टस्वरः अनुदात् अस्ति, सः धातु एव अनिट् भवति. अन्य सर्वे धातवः सेट् एव भवति. सो केवलम् एकं तादृश एव सूत्रम् अस्ति यस्मिन् धातुः अवशिष्टस्वरः अनुदातः सः अनिट् धातुः इति लिखितं सो मेङ् धातुः अपि अवशिष्टस्वरः अनुदात् अतः सः अपि अनिट् मेङ् अपि अनिट् अवशिष्टस्वरेण इड् व्यवस्था इत्संज्ञकस्वरेण पदव्यवस्था यदि कोऽपि इत्संज्ञक वर्णः एव नास्ति धातौ सः धातुः परस्मैपदी भवति कर्तरिप्रयोगे तत्र अस्माभिः परस्मैपदी प्रत्ययः योजनीयम् इति अत्र लिखितं सिमिलर्लि क्ष्मु इति धातुः तत्र स्वरद्वयम् अन्ते उकारः अनुनासिक् क्ष अनन्तरं यः इकारः सः निरनुनासिक् सो निरनुनासिकस्वरस्य इति न भवति केवलम् अनुनासिकस्वरस्य इति भवति सो उकारः एव अपगच्छति परन्तु क्षि इकारः यः अस्ति सः उदात् इकारः तत्र कोऽपि चिह्नं नास्ति उदात् अस्ति चेत् धातुः सेट् भवति सो केवलम् अवशिष्टस्वरः अनुदात् अस्ति सः धातु अनिट् अन्य सर्वे धातवः सेट् इति तत्र सूत्राधारेण अवगन्तुं शक्यते इति तत्र लिखितम् सो इड् व्यवस्था अवशिष्टस्वरस्य आधारेण धातौ यः अवशिष्टस्वरः तेन एव तत्र इड् व्यवस्था वयं ज्ञातुं शक्यते धातु सेट् वा अनिट् वा इति वयम् अवशिष्टस्वरस्य आधारेण सो इदानीं तत्र इडागमः तस्य कृते सूत्राणि कानि अपि च निषेधकसूत्राणि कानि इति अग्रे लिखितम् अस्तु प्रत्ययस्य स्वभावः कीदृशप्रत्ययस्य इडागमः यदा मया यथा मया पूर्वे उक्तम् इडागमः प्रत्ययस्य आगमः प्रत्यये इडागमः भवति धातु अथवा प्रातिपदिकात् इडागम प्रातिपदिकस्य इडागमः नास्ति प्रत्यये इडागमः भवति सो कीदृशप्रत्ययानाम् इडागमः इति सूत्राधारेण इदानीं पठामः प्रत्ययस्य स्वभावः अग्रे कः पठति कः अथवा का पठितुं शक्नोति कृष्णमूर्ति अस्ति पठितुम् इच्छति वा नो चेत् विजया भगिनि पठितुमिच्छति वा भगिनि
आं पठामि महोदय आर्धधातुकस्य बलादेः प्रत्ययस्य स्वभावः प्रत्ययस्य स्वभावः आर्धधातुकस्य बलादेः आर्धधातुकप्रत्ययस्य आदौ वल् प्रत्यहारे अन्यतमवर्णाः अस्ति अन्यतमवर्णः अस्ति चेत् तस्य इडागमः भवति स्कोल् अहं दूरवाण्यम् अस्मि स्कोल् करणीयम् अत्र सङ्गणके इदानीमेव मया उद्घाटितम् अतः तत्र वलादेः आर्धधातुकस्य वला आगमः कुत्र अस्ति इदानीम् एकनिमिषं महोदय अस्तु वलादेः आर्धधातुकस्य इड् आगमः स्यात् वलादेः वलादिप्रत्ययम् अस्ति चेत् अत्र इड् आगमः इति अस्तु पूर्णतया अहं पठामि इट् आगमः टित् अस्ति अतः आद्यन्तौ टकितौ इत्यनेन प्रत्ययस्य आदौ आयाति वल् प्रत्याहारे यकारं विहाय सर्वाणि व्यञ्जनानि अन्तर्गतानि वल् आदौ यस्य सः वलादिः बहुवीर्घिः तस्य वलादेः अर्धधातुकस्य षष्ट्यन्तम् इट् प्रथमान्तं वलादेः षष्ट्यन्तं त्रिपदमिदं सूत्रम् अङ्गस्य इत्यस्य अधिकारः इदानीम् अनुवृत्तिसहितसूत्रम् अङ्गात् वलादेः आर्धधातुकस्य इट् भवति इति एकनिमिषं भगिनि, अत्र भवत्याः नाम मया प्राप्तं धातुविज्ञानम्. अस्तु महोदय, इदानीं शेषात् कर्तरि परम् ईड् व्यवस्था आर्धदत्तकस्य आर्धदत्तकस् ईड् वलादेशे ईट् कुत्र भवति चेत् प्रथमनिमित्तमस्ति आर्धदातुकमस्ति, अनन्तरं वलादिप्रत्यये अस्ति चेत् एव आर्धदातुकप्रत्ययस्य आदौ वल् प्रत्याहारे यकारविनाय यकार यो विहाय वल् प्रत्याहारे अन्यतमवर्णः अस्ति चेत् तस्य इडागमः भवति. वल् प्रत्याहारे अन्यतमवर्णः अस्ति, वल् प्रत्याहारे इदानीं किम् अस्ति चेत् अत्र
हयवरट् हयव
हयवरट् आरभ्य अत्र यकार यकार विहाय सर्वे व्यञ्जनानि भवति एव अत्र वल् प्रत्याहारे. अनन्तरम् अत्र किमस्ति इदानीं यत्र एतत् इडागमः भवति इदानीं दृष्टवन्तः वलादेः आर्धदत्तकस्य एड् वला एड् आगमः भवति इति. वलादेशे आर्धदात्तकस्य निमित्तं वलादि अस्ति चेत् अनन्तरम् आर्धदात्तकस्य अस्ति चेत् इडागमः स्यात् एव. इट् आगमः तित् अस्ति, इट् इत्यस्ति अन्तिमवर्णः टकारः अस्ति अतः तित् अस्ति अतः तत्र आद्यन्तौ टकितौ इत्यनेन टित् अस्ति कित् अस्ति इत्यनेन प्रत्ययस्य आदौ आयाति. टित् अस्ति चेत् प्रथमम् आयाति, कित् अस्ति चेत् अन्ते आयाति. वल् प्रत्याहारे यकारं विहाय सर्वाणि व्यञ्जनानि अन्तर्गतानि. वल् आदौ यस्य सः वलादिः, अत्र बहुदीर्घिः अस्ति तस्य वलादेः इति अस्ति, अन्यपदं सूचयति अत्र तस्य वलादेः इत्यनेन आर्धदातुकस्य षष्ट्यन्तम् अतः एव तत्र स्थानिनः भवति. इट् प्रथमान्तं, वलादेः षष्ट्यन्तं, त्रिपदमिदं सूत्रम्. अङ्गस्य इत्यस्य अधिकारः, अङ्गकार्यं यत्र भवति एतत् सर्वाणि अङ्गकार्यं षष्टम अध्याये एव भवति. अतः एतदपि आर्धदातुकस्य वलादेः एतत् अङ्गस्य इत्यस्य अधिकारे एव एतत् कार्यं भवति इति तत्र अङ्गस्य इत्यस्य अधिकारः. अनुवृत्तिसहितसूत्रं किम् अस्ति चेत् अङ्गात् वलादेः, अङ्गात् इत्यस्य अङ्गं यत्र अस्ति तत् वलादेः आर्धदातुकस्य वलादिः भवितव्यम्, अनन्तरम् आर्धदातुकम् अपि भवितव्यं. यत्र एतौ भवतः तत्र इट् आगमः भवति, इट् इति इडागमः इडागमस्य चिन्तनं भवति इति तत्र दत्तं महोदय.
आं भगिनि, सम्यक् अस्ति, धन्यवादः.
धन्यवादः महोदय.
धन्यवादः. सो आर्धदातुकसेड् वलादेः इति सूत्रं प्रथमसूत्रम्, इडागमविधायकसूत्रम्. अनेन सूत्रेण एव इडागमः भवति. सो यदि कोऽपि पृच्छति इडागमविधायकसूत्रं किम्, आर्धदातुकसेड् वलादेः इति इडागमविधायकसूत्रम्. अस्मिन् सूत्रे एव वयम् अवगन्तुं शक्यते, अनेन सूत्रेण एव आर्धदातुकस्य इति षष्ठ्यन्तं पदमस्ति. सो इदानीम् अत्र किमपि प्रत्ययः परश्च इति तत्र अधिकारः नास्ति, केवलं लिखितम् अत्र अङ्गस्यैव अधिकारः. आर्धदातुकस्य इट् वलादेः, वलादेः अपि षष्ठ्यन्तम्, आर्धदातुकस्य अपि षष्ठ्यन्तम्. सो अत्र विशेषणविशेषभावः, कीदृश आर्धदातुकस्य, वलादेः आर्धदातुकस्य. वलादि इति विशेषणम् अस्ति, तत्र बहूनि आर्धधातुप्रत्ययाः सन्ति. सो इदानीं तत्र प्रश्नः आर्धधातुक् इत्युक्ते किम्. अत्र तु न लिखितम् आर्धधातुक् इत्युक्ते किं, परन्तु वयं जानीमः आर्धधातुक् इति कस्य संज्ञा, आर्धधातुक् इति कस्य संज्ञा,
आर्धधातुकं शेषः
किम्, तेन किम्
तिंशत् सार्वधातुके आर्धधातुकं शेषः, तिंशत् नास्ति चेत्
व्याकरण ने आर्धधातु संज्ञा कस्य प्रत्ययस्य कस्य प्रत्ययस्य आर्धधातुक् इति संज्ञा प्रत्ययस्य कोऽपि आगमः कोऽपि अन्य वर्णसमूहस्य न यः प्रत्ययः यस्य प्रत्ययः इति संज्ञा तस्य एव आर्धधातुक् अपि च सार्वधातुक् अपि च कीदृशप्रत्ययस्य आर्धधातुक् इति संज्ञा
भिन्नाः षट् भिन्नाः अस्ति चेत् अत्र प्रत्ययः आर्धधातुकसंज्ञः भवति तत्र एव इत् वर्णाः सन्ति चेत् अत्र कार्यं करोति खलु महोदय
इदानीं किञ्चित् तत्र विशिष्ट यः सूत्रसङ्ख्या अस्ति तस्य एकं प्रयोजनम् अस्ति सूत्र कुत्र अस्ति तिंक्षित् सार्वधातुकम् अपि च आर्धधातुकं शेषः इति सूत्रद्वयं कुत्र तृतीयाध्याये तृतीयाध्याये चतुर्थपादे त्रयोदश अधिक एकशततम सूत्रमस्ति तिंक्षित् सार्वधातुकम् अत्र अत्र स्क्रीन् दृश्यते वा तिंक्षित् सार्वधातुकम्
आम् आम् द्रष्टुं शक्यते
तृतीयाध्याये चतुर्थपादे अस्मिन् तृतीया अध्याये प्रत्ययः परश्च धातोः इत्यस्य अधिकारः अस्ति सो प्रत्ययः परश्च धातोः धातोः इति पञ्चमी अन्तमस्ति सो धातोः अनन्तरं तिंक्षित् अस्ति चेत् धातोः अनन्तरं किं तत्र विधीयते धातोः अनन्तरं यत्किमपि शब्दसमूहः तत्र तृतीयाध्याये विधीयते तस्य संज्ञा प्रत्ययः सः प्रत्ययः सः शप् वा स्य वा त्यास् वा लट् वा तत्र सन् वा यङ् वा क्रु वा सोरि तवतु वा शानच् वा शुत्र वा ते सर्वाणि ते सर्वाणि शब्दसमूहः तृतीयाध्याये एव तेषां सूत्राणि तेषां विषये विधिसूत्र तृतीयाध्याये एव सन्ति सो तत्र यः नूतनशब्दसमूहः तस्य प्रत्ययः इत्यनेन प्रत्ययः सः प्रत्ययसंज्ञा भवति तस्य सो अत्र तिंक्षित् सार्वधातुकम् इति सूत्रे अपि प्रत्ययः परश्च धातोः इति अस्य अधिकारः अस्ति सो धातोः इति पञ्चम्यन्तं सो धातोः पञ्चम्यन्तम् अस्ति चेत् अनन्तरं तस्य अनन्तरं कार्यं भवति धातोः अनन्तरं तिङ् अथवा अश्चित् अस्ति चेत् यत् अपि शब्दसमूहः सः तिङ् अथवा शित् अस्ति चेत् तस्य सार्वधातुक् इति संज्ञा इति तस्य अर्थः सो तथैव आर्धधातुकं शेषः धातोः प्रत्ययः परश्च आर्धशेषः आर्धधातुकम् इति तत्र अन्वयः भवति सो धातोः अनन्तरं यः नूतनशब्दसमूहः यदि सः नूतनशब्दसमूहः तिङ् नाशित् वा तस्य शब्दसमूहस्य आर्धधातुक् इति संज्ञा इति सततर संज्ञा भवति सो आर्धधातुक् इति संज्ञा कस्य प्रथमे तु प्रत्ययस्य अनन्तरं कीदृशप्रत्ययस्य अत्र किं लिखितं प्रत्ययस्य स्वभावः प्रत्ययस्य स्वभावः सो प्रत्ययस्य स्वभावः कः प्रथमे तु सः आर्धधातुक् प्रत्ययः भवेत् इत्युक्ते तिङ् विहाय शित् विहाय सः भवेत् अपि च कीदृशप्रत्ययस्य आर्धधातुक् इति संज्ञा धातोः अनन्तरं यः विहितः भवति सः प्रत्ययः एव आर्धधातुक् इति संज्ञा प्राप्नोति प्रातिपदिकस्य अनन्तरम् अपि प्रत्ययः विधीयते प्रत्ययः परश्च इति तत्रापि अधिकारः अस्ति परन्तु तत्र प्रातिपदिकस्य अनन्तरं चतुर्थ अध्याये पञ्चमे अध्याये तत्र धातोः इति अधिकारः नास्ति केवलं तृतीयाध्याये एव धातोः अधिकारः अस्ति अतः सम्पूर्णतृतीयाध्याये यानि यानि प्रत्ययाः पाठितानि सन्ति तेषां संज्ञा एव सार्वधातुक् अथवा आर्धधातुक् भवितुं शक्नोति चतुर्थाध्याये अपि प्रत्ययाः पाठिताः सन्ति, पञ्चमे अध्याये अपि प्रत्ययाः पाठिताः सन्ति, परन्तु तेषां तत्र ये नूतनशब्दसमूहाः आयान्ति सुप् सु औजस्ट् अम् ओट्षस् ते आर्धधातुक् अथवा सार्वधातुक् प्रत्येषां संज्ञा सार्वधातुक् अथवा आर्धधातुक् न भवति, केवलं धातोः अनन्तरं ये प्रत्ययाः विहितः तेषां संज्ञा एव आर्धधातुक् अथवा सार्वधातुक् इति भवति। किमर्थं चेत् केवलं तृतीयाध्याये एव धातोः इत्यस्य अधिकारः अस्ति। सो धातोः अनन्तरं तिङ् अस्ति चेत् सार्वधातुकं, धातोः अनन्तरं षित् अस्ति चेत् सार्वधातुकं, धातोः अनन्तरं तिङ् षित् विहाय अन्य कोऽपि प्रत्ययः अस्ति चेत् तस्य आर्धधातुक् इति संज्ञा। तादृश आर्धधातुकस्य प्रत्ययस्य इति अत्र प्रत्ययस्य इति लिखितं, सूत्रे प्रत्ययस्य इति न लिखितं, परन्तु आर्धधातुक् इति संज्ञा, प्रत्ययानाम् आर्धधातुक् इति संज्ञा। सो आर्धधातुकस्य प्रत्ययस्य इति तत्र अन्वयः भवति, एतत् संज्ञा प्रत्ययस्य संज्ञा, अपि च धातोः अनन्तरं ये प्रत्ययाः तेषाम् एव आर्धधातुक् इति संज्ञा। सो आर्धधातुक् प्रत्ययस्य आदौ वल् प्रत्याहारस्य अन्यतमवर्णः, वल् प्रत्याहारे बहूनि वर्णानि सन्ति, य विहाय कख गगन च छ जन तत्र सर्वे वर्गीयव्यञ्जनानि, अपि च अन्तस्थेषु य विहाय अन्य सर्वे व्यञ्जनानि, शश सः एते अपि वल्प्रत्याहारे आयन्ति। अन्यतमवर्णः, अन्यतम इत्युक्ते एनी वन् आफ् दोस्, वल्प्रत्याहारे बहूनि वर्णानि सन्ति, य विहाय सर्वे व्यञ्जनानि वल्प्रत्याहारे। सो प्रथमे तु सः आर्धधातुक् प्रत्ययः भवेत्, अपि च सः कीदृश आर्धधातुक्, वलादेः आर्धधातुक् विशेषणमस्ति आर्धधातुकस्य, आर्धधातुक् प्रत्ययः भवेत् अपि च सः वलादि भवेत्। सो यक् इति प्रत्ययः, भावकर्मणोः किं भवति, धातोः अनन्तरं यक् प्रत्ययः विधीयते, यक् इति प्रत्ययः ककारस्य इत्संज्ञा अस्ति, या इति अवशिष्टभागः, परन्तु या इति वलादि नास्ति, यक् इति प्रत्ययः तिङ् नास्ति, षित् नास्ति, आर्धधातुक् प्रत्ययः धातोः अनन्तरं विधीयते, अतः आर्धधातुक् तस्यापि आर्धधातुक् संज्ञा अस्ति, परन्तु तत्र य इति आदौ अस्ति। सो यकार यक् इति प्रत्ययः आर्धधातुक् तु अस्ति परन्तु वलादि नास्ति, अतः तत्र इडागमः तस्य यक् प्रत्ययस्य इडागमः न भवति, सः इडानुकूलप्रत्ययः नास्ति अनेन सूत्रेण एव। परन्तु यदा वयं स्य प्रत्ययः धातु पाठ्ययोगस्य योगति, स्य इति प्रत्ययः तिङ् नास्ति, षित् नास्ति, स्य इति प्रत्ययः आर्धधातुक् प्रत्ययः, धातोः विधीयते, धातोः विहितः भवति स्य इति प्रत्ययः, परन्तु आदिं वर्णः सकारः, सकारः वल् प्रत्याहारस्य वर्णः, आर्धधातुक् अस्ति अपि च वलादि अस्ति, अतः तत्र इस्य भवति, इस्य इडागमः तत्र भवति, तस्य तादृशधातुः इडानुकूलदा, तादृशप्रत्ययस्य एव इडानुकूल इड् आगमः। सो अपि च अत्र अङ्गस्य अधिकारः, अङ्गस्य इति यः सूत्रमस्ति षष्ट्यन्तं सूत्रमस्ति, परन्तु अत्र किं लिखितम्, अङ्गात्। किमर्थम्, एतत् इडागमः प्रत्ययस्य आगमः, अङ्गस्य अनन्तरं यः प्रत्ययः तस्य इडागमः भवति। सो इडागमः प्रत्ययस्य आगमः, प्रत्यये इडागमः भवति, इडागमः टित् अस्ति, यस्य आगमः, कस्य आगमः, प्रत्ययस्य आगमः, यस्य आगमः आद्यन्तौ टकितौ इत्यनेन तस्य आदौ टित् कारणेन। सो इडागमः इकारस्य आगमः प्रत्ययस्य आगमः, प्रत्यये इडागमः भवति, द इडागम हेपन् इट् बिकम्स् अ पार्ट् आफ् द प्रत्यय, न तु अङ्गस्य भाग, एतद् धातोः भागं न भवति, प्रत्ययस्य भागः। सो वट् वि से इस्य भवति, टित् कारणेन यस्य आगमः प्रत्ययस्य आगमः अस्ति प्रत्ययस्य आदौ धातोः तु अन्ते विधीयते परन्तु आर्धधातु कस्य इति षष्ठी अन्तं रामस्य इति तादृश अस्ति आर्धधातु कस्य इड् कीदृश आर्धधातुकस्य इड् वलादेः आर्धधातुकस्य इड् सर्वेषाम् आर्धधातुकप्रत्ययानाम् इडागमः न भवति वलादि आर्धधातुकस्य एव इडागमः भवति इत्युक्ते अनियर् अनियर् इति प्रत्ययः धातोः विधीयते धातुयोग अनियर् अनियर् इति प्रत्ययः तत्र प्रथमवर्णः कः अकारः अकारः वल्प्रत्याहारस्य वर्णः न सो वल्प्रत्याहारे केवलं व्यञ्जनानि सन्ति अपि च व्यञ्जनेषु य न सन्ति य न अस्ति य विहाय सर्वाणि व्यञ्जनानि इत्युक्ते यदि आर्धधातुकप्रत्ययस्य आदिं वर्णः कोऽपि स्वरः अस्ति सः अपि तत्रापि इडागमः न भवति सः वलादि नास्ति सो अनियर् प्रत्ययस्य इडागमः न भवति इडनुकूलप्रत्ययः नास्ति तथैव नवुल् नवुल्प्रत्यये नवुल्प्रत्यये तत्र अनुबन्धानां निष्कासनम् अनन्तरं वु इति अवशिष्टभागः तत्र वु इति प्रत्ययस्य तत्र किम् आदेशः भवति युवर् नाको इत्यनेन तत्र अक् इति आदेशः भवति इदानीम् अक् इति यः अस्ति वलादि नास्ति स्वर आदौ अस्ति अकारः आदौ अस्ति अतः नवुल् प्रत्ययः अपि आर्धधातुक अस्ति परन्तु वलादि नास्ति सो नवुल् प्रत्ययः अपि इडनुकूलः नास्ति तत्रापि इडागमः न भवितुं शक्नोति तथैव निच् प्रत्ययः निच् प्रत्ययः इड् आर्धधातुकप्रत्ययः तिङ् नाशित् न आर्धधातुकं शेषः इत्यनेन निच् प्रत्ययः आर्धधातुकप्रत्ययः आर्धधातुक अस्ति परन्तु वलादि नास्ति निच् प्रत्यये अवशिष्टभागः कः इकारः इकारः वल्प्रत्याहारस्य वर्णः न सो अत्र लिखितं वल्प्रत्याहारे अन्यतमवर्णः अस्ति चेद् इडागमः भवति इकारः वल्प्रत्याहारे न आयान्ति वल्प्रत्याहारे अन्तर्गतः इकारः न आयाति कोऽपि स्वरः वल्प्रत्याहारे नास्ति सो हय वरट् अपि च लन् सो कोऽपि कस्यचित् आर्धधातुकप्रत्ययस्य आदिं वर्णः स्वर अस्ति चेत् तत्रापि इडागमः सः अपि इडनुकूलप्रत्ययः नास्ति तस्य इडागमः न भवति केवलं वलादि आर्धधातुकस्य एव इड् इति सूत्रस्य अर्थः वलादेः आर्धधातुकस्य इड् इति सूत्रम् अपि च अत्र अङ्गस्य यः षष्ठी अन्तम् अत्र अङ्गात् लिखितम् सो अत्र वचनपरिणामङ्कितम् किमर्थं प्रत्ययस्य आगमः इडागमः प्रत्ययस्य आगमः प्रत्ययः कुत्र अस्ति अङ्गस्य परे प्रत्ययः अङ्गात् अनन्तरं यः सः इडागमः भवति अतः अङ्गात् लिखितं न तु अङ्गस्य लिखितम् अङ्गात् वलादेः आर्धधातुकस्य इड् वार्धधातुकप्रत्ययस्य इड् इति तत्र अन्वयः भवति आर्धधातुक् इति संज्ञा प्रत्ययस्य सो वलादि आर्धधातुकप्रत्ययस्य इड् इति तत्र अन्वयः कोऽपि आर्धधातुकप्रत्ययः वलादि नास्ति तत्र इडागमः न भवति सो तव तु क्त तस्य तुमुन् त तुमुन् तकारः तकारः वल्प्रत्याहारस्य वर्णः अतः इडनुकूल आर्धधातुकप्रत्ययः अतः तत्र शप् शनं शन् श्ना एते सर्वे अपि च तत्र अष्टमगणे क्रनादितनादिकृण्भ्यः उः उ इति प्रत्ययः उ अपि आर्धधातुक अस्ति परन्तु वलादि नास्ति अतः तत्रापि इडागमः न भवति सो लट् लकारे लोट् लकारे लङ् लकारे विधिलिङ्ग् लकारे यत्र विकरणप्रत्ययः आयान्ति गणविकरणप्रत्ययः आयान्ति तत्र तेषित् प्रत्ययः एकमेव अर्धधातुकप्रत्ययः उ इति प्रत्ययः तनादिकृण्भ्यः उः उ प्रत्ययः अर्धधातुक अस्ति परन्तु वलादि नास्ति अतः तत्रापि इडागमः न भवति शप् प्रत्ययः शित् अस्ति शित् कारणेन सार्वधातुक सार्वधातुकप्रत्ययस्य इडागमः न भवति सूत्रमस्ति अर्धधातुकस्य इड् अर्धधातुकप्रत्ययस्य इडागमः भवति कीदृश अर्धधातुकस्य वलादे अर्धधातुकस्य सो कण्डिशन् द्वयम् इडागमः प्रत्ययस्य आगमः कीदृशप्रत्ययस्य अर्धधातुकप्रत्ययस्य कीदृश अर्धधातुकप्रत्ययस्य वलादे अर्धधातुकप्रत्ययस्य एव इडागमः भवति इति सामान्यनियमः अपवादाः अपि सन्ति सो सामान्यनियमाधारेण व्याकरणशास्त्रे इडागमः अर्धधातुकप्रत्ययस्य इडागमः वलादि अर्धधातुकस्य इडागमः भवति अपि च अर्धधातुक इत्यनेन धातोः अनन्तरं ये प्रत्ययाः तेषां ते यदि वलादि अपि च अर्धधातुक् तेषाम् एव इडागमः भवति सो अर्धधातुक् सार्वधातुक् इति संज्ञा धातोः अनन्तरं ये प्रत्ययाः तेषाम् एव अर्धधातुक् अपि च सार्वधातुक् इति संज्ञा प्रातिपदिकस्य अनन्तरं ये प्रत्ययाः तेषां संज्ञा अर्धधातुक् सार्वधातुक् इति नास्ति अत्र एतत् संज्ञासूत्रमस्ति परन्तु धातोः अधिकारे अस्ति अतः धातोः अनन्तरं ये प्रत्ययाः तेषामेव एतादृशसंज्ञा अस्ति सर्वैः अवगतं वा सूत्रस्य अर्थः कः
आं महोदय
सर्वैः अवगतं वा कोऽपि प्रश्नः अस्ति चेत् कृपया पृच्छतु अत्र तु समयः अभवत् सो व्याकरणशास्त्रे इडागमः प्रत्ययस्य आगमः कीदृशप्रत्ययस्य धातोः अनन्तरं ये प्रत्ययाः ते प्रत्ययाः अर्धधातुकसंज्ञकाः अपि च वलादि अस्ति चेदेव इडागमः भवति एतेषां विहाय कोऽपि अन्यप्रत्ययः अस्ति तस्य इडागमः न भवति सो वलादि न केवलं यकारं विहाय अपि च सर्वाणि सर्वाः स्वराः अपि वलादिप्रत्याहारे न सन्ति सो यद् प्रत्ययस्य अर्धधातुकप्रत्ययस्य प्रथमवर्णः स्वर अस्ति चेत् तत्रापि इडागमः न भवति सः प्रत्ययः अपि इडानुकूलः नास्ति केवलं वलादि य विहाय इति तत्र अर्धधातुकस्येड् वलादेः सो प्रत्ययस्य स्वभावः दृष्ट्वा एव इडागमः भवति षित् प्रत्ययानाम् इडागमः न भवति तिङ् प्रत्ययानामपि इडागमः न भवति तिप्तश्चि किमर्थं चेत् सामान्यनियमेन लह इति यः तिङ्क्षित् सार्वधातुकं सो सर्वे अष्टादश तिङ् प्रत्ययाः मूले सार्वधातुकसंज्ञकाः तेषामपि इडागमः न भवति सूत्रं तादृशम् अर्धधातुकस्य एव इड् वलादि अर्धधातुकस्य एव इड् इति सूत्रस्य अर्थः अत्र अस्तु
अनन्तरम् अन्यतमवर्णः अस्ति चेत् अपि भवति खलु
वल् प्रत्याहारस्य अन्यतमः इत्युक्ते वल् प्रत्याहारे ये वर्णाः सन्ति तेषु कोऽपि एकं वर्णः अस्ति चेत् आदौ अस्ति चेत् तत्र इडागमः अन्यतमः इत्युक्ते औट् आफ् मनी ओन्ली वन् औट् आफ् दोस् इफ् एनी आफ् द वल् प्रत्याहारस्य वर्णः आदौ अस्ति त अस्ति क अस्ति यत्किमपि वल् प्रत्याहारे ये ये वर्णाः सन्ति तेषु अन्यतमः अस्ति औट् आफ् दोस् कोऽपि एकवर्णः आदौ अस्ति चेदेव तादृश अर्धधातुकप्रत्ययस्य यथा तुमुन् तुमुन् इति प्रत्ययः तिङ् नाशित् न अर्धधातुक् अपि च आदौ तकारः अस्ति तकारः तिष्ठति तस्य संज्ञा नास्ति तकारः तिष्ठति तकारः वल् प्रत्याहारस्य वर्णः वल् प्रत्याहारस्य अन्यतमवर्णः अस्ति तकारः एकं वर्णः अस्ति तकारः अतः तुमुन् प्रत्ययः इडनुकूलप्रत्ययः इति तत्र अन्यतमवर्णः सो बहुषु एकम् अस्ति चेत् वि काल् इट् अन्यतमवर्णः
अस्तु महोदय
यथा तत्र कृतप्रत्ययः कृतप्रत्ययः आदौ ककारः अस्ति परन्तु ककारस्य इति संज्ञा सो प्रत्ययस्य स्वभावः इति यः अस्ति कदा द्रष्टव्यम् इत्संज्ञकवर्णानाम् अनन्तरं प्रत्यादेश अनन्तरम् एव स्वभावः द्रष्टव्यं यथा नवुल् नवुल् इति प्रत्ययः वु इति अवशिष्टभागः नकारस्य इत् अस्ति लकारस्य इत् अस्ति वु इति अवशिष्टभागः वकारः वल् प्रत्याहारस्य वर्णः अस्ति परन्तु तदा न द्रष्टव्यं वु इत्यस्य अक् इति आदेशः भवति अक इति आदेशः भवति सो युवोर् नाको इत्यनेन वु प्रत्ययस्य अक् इति आदेशः भवति तदा यदा आदेश अनन्तरम् एव स्वभावः द्रष्टव्यम् अक इति प्रत्ययः नवुल् इति प्रत्ययः तिष्टिङ् नाश्चित् न आर्धधातुक् अस्ति अपि च प्रत्यादेशः अनन्तरं तत्र अकारः आदौ श्रूयते अतः सः वलादि नास्ति सः अवलादि अस्ति वलादि नास्ति अतः तत्र अक नवुल् प्रत्यये अपि इडानुकूलता न वर्तते किमर्थं चेत् वलादि नास्ति अर्धधातुक् अस्ति परन्तु वलादि नास्ति सो वलादेः अर्धधातुकस्य एव इडागमः इति तत्र इत्संज्ञकवर्णानां निष्कासनम् अनन्तरम् अपि च प्रत्यादेश अनन्तरं प्रत्ययस्य स्वभावः द्रष्टव्यम् प्रत्ययः कीदृशः तथैव तत्र यूस्थाने तत्र यूस्थाने अन आदेशः भवति सो अनुबन्धानां निष्कासनम् अनन्तरम् आदेश अनन्तरम् एव प्रत्ययस्य स्वभावः द्रष्टव्यम् सः वलादि वा वशादि वा इति प्रत्यादेश अनन्तरम् एव द्रष्टव्यम् इति तत्र निष्कर्षः पूर्वे एव न दृष्टम् नवुल् इति व आदौ अस्ति परन्तु वु इति न तिष्ठति वु इति अक आदेशः भवति युवर् नाको इत्यनेन सो अक इति वलादि नास्ति अकारः आदौ अस्ति तत्र इडागमः नवुल् प्रत्ययः इडानुकूलता न वर्तते अस्तु अग्रे अपि पठामः एतस्य विषये एव दत्तं सूत्रस्य विषये किमपि अन्यत् अस्ति अस्तु अत्र तु स्थगामः जगदीश महोदय कृपया शान्तिमन्त्रं पठतु महोदय नो चेत् अहमेव
पठ पूर्णात् पूर्णमुदच्छ्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॐ शान्तिशान्तिशान्तिः हरि ओम् श्रीगुरुभ्यो नमः हरि ओम् तत्सत् नमस्काराः धन्यवादाः पुनः मिलामः
शुभदिनं महोदय नमस्कारः धन्यवादः